एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते बूढी गण्डकी जलविद्युदायोजनायाः शिलान्यासम् सेवाषाढमासस्य अभ्यन्तरे विधातुम् पूर्वकार्यम् विधीयमानम् वर्तते। प्रधानमन्त्री प्रचण्डः आयोजनायाः कार्यपद्धतिर्विषये सहमतिर्धृतास्ति, आवश्यक प्रक्रिया च शीघ्रं प्रारप्स्यते इति अज्ञापयत्। प्रधानमन्त्री प्रचण्डः आयोजनायाः कार्यालयस्य स्थापना निर्माण प्रक्रियायाः शिलान्यासश्च आषाढस्य अभ्यन्तरे विधास्येते इति प्रतिबद्धताम् अभिव्यनक्। धादिङ जनपदस्य गजुरी स्थाने आदर्श बहुमुखी महाविद्यालयस्य भवनस्य उद्घाटनक्रमे ह्य प्रधानमन्त्री प्रचण्डः अवदत्, राष्ट्रिय गौरवस्य आयोजनायाः रूपेण विद्यमानायाः बूढी गण्डकी परियोजनायाः निर्माणम् महत्वपूर्णम् वर्तते। असौ स्वस्य पश्चात्तन भारत भ्रमणम् ऐतिहासिकम् सम्भूतमिति चर्चयन् आगामिषु दशसु वर्षेषु 10,000 मेगावाट परिमाणस्य विद्युत् क्रयणेन अन्येषु भौतिक विकास निर्माणेन च सम्बद्धेषु विषयेषु महत्वपूर्ण सहमतिर्धृता, येन कार्येण दीर्घकालिक प्रभाव स्रक्ष्यते इति प्रत्यपादयत्। असौ आगामिनि पञ्चवर्षाणि वर्तमान गठबन्धनमेव स्थास्यति, अस्यैव गठबन्धनस्य नेतृत्वेन देशो विकासस्य युगम् प्रयास्यति इति च न्यश्चिनोत्। प्रधानमन्त्री प्रचण्ड भारत भ्रमणस्य क्रमे प्रधानमन्त्रिणो रूपेण आत्मना शोभना कार्यम् विहितम् सदपि प्रतिकूल प्रवृत्तियुतैः जनैः अनावश्यक विरोधो वितोऽस्तीति अगदत्। प्रधानमन्त्री प्रचण्डः आत्मना देश जनतयोः पक्षे सदैव कार्याणि विधीयन्ते इति प्रतिबद्धताम् व्यक्तवान्। प्रतिनिधि सभाया गतदिवसीयोपवेशे एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतम् मन्त्रालयानाम् विभिन्नानि शीर्षकाणि आधृत्य विहितस्य विमर्शनस्य क्रमे उत्थापितानाम् प्रश्नानाम् सम्बद्ध मन्त्रिणः उत्तराणि प्रादुः। एतदन्तर्गतेन रक्षा मन्त्रालयेन सम्बद्धान् प्रश्नान् उत्तरयन् उपप्रधान रक्षामन्त्री पूर्णबहादुर खड्का राष्ट्रिय सुरक्षा सदृशे संवेदनशील विषये सर्वेषां समान धारणया बोधेन च भाव्यमिति अवोचत। प्रतिरक्षा विश्वविद्यालयस्य विषये सांसदैः व्यक्तां जिज्ञासां समाददान उपप्रधान रक्षामन्त्री खड्का राष्ट्रिय सुरक्षया सह संयोजितायाः राष्ट्रिय सुरक्षायाः राष्ट्रिय सुरक्षया सुरक्षानीतेः रणनीतेश्च राष्ट्रस्य बाह्यानाम् अन्तराणाम् च सुरक्षा समाह्वयानाम् क्षेत्रीयाणाम् अन्तराष्ट्रियाणाम् च परिवेशानाम् नियमिताध्ययनाध्यापनानुसन्धानानाम् कृते शैक्षिक संस्थायाः स्थापनस्य आवश्यकतायाः कारणेन प्रतिरक्षा विश्वविद्यालयस्य नीतिगत व्यवस्थायी कार्यक्रमः अग्रेसारितोऽस्तीति समस्पष्टयत। रक्षा मन्त्री खड्का काष्ठमण्डप तराई मधेश द्रुत मार्गस्य अवशिष्टानाम् एकमुष्ट कार्यक्रमाणाम् आह्वान प्रक्रियाम् शीघ्रम् अग्रे वर्धयित्वा आयोजनायाः आगामिनः 83-200 विक्रम वर्षस्य चैत्रमासस्य अभ्यन्तरे पूर्णत्वेन व्यवस्था विहितास्तीति अवोचत। संघीय विषय सामान्य प्रशासन मन्त्रालयस्य विभिन्नानि शीर्षकाणि आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नानुत्तरयन् संघीय विषय सामान्य प्रशासन मन्त्री अमन लाल मोदी संघीयतायाः क्रियान्वयनम् प्रभावकारी विधातुम् दृढता स्थिति अकथयत। संघीय विषय सामान्य प्रशासन मन्त्रालयस्य मन्त्रालयगतम् आयव्ययकम् प्रतिशतम् 53% न्यूनीभूतमिति सूचयन् मन्त्री मोदी अगदत्, सर्वेषाम् कृते समानरूप याचनायाः आधारेण च वित्तम् विनियोक्तुम् सक्तम् नास्ति। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराती अब्रवीत्, पर्यटकानाम् प्रवेशनाय स्वच्छ सम्पदाम् पूर्वधाराणाम् संस्कृतेश्च रूपान्तरणम् आवश्यकम् वर्तते। मन्त्रालय सम्बद्ध विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री किराती अगदत्, देशे पर्यटकानाम् आकर्षणाय प्राकृतिक भौतिक संरचनानाम् समयानुकूल विकासो विधातव्य। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत अवोचत, विपन्न नागरिकाणाम् उपचाराय स्वास्थ्योपचारस्य कार्याणि प्राथमिकता प्रदत्तास्ति, कार्येभ्यः प्राथमिकता प्रदत्ता अस्ति। स्वास्थ्य मन्त्री बस्नेत प्रतिशतम् 10,000 विपन्न सहायेभ्यः नागरिकेभ्यः प्रदानस्य कार्यम् 22 जनपदेभ्यः प्रारब्धमस्तीति असूचयत। उपवेशे परराष्ट्रमन्त्री नारायण प्रकाश साउद आर्थिक कूटनीत्या देशस्य सामाजिकार्थिक विकासाय योगदानं प्रापयितुं प्रतिवेशी राष्ट्राभ्यां सह आविश्वं सर्वैः मित्रराष्ट्रैः सह मैत्रीपूर्ण सम्बन्धं सुदृढं विधाय सहयोगस्य क्षेत्राणि विस्तार्य च भूपरिवेष्टित देशस्य अधिकारान् सुनिश्चेतुं सर्वकारः उन्मुखोऽस्तीति उदैरयत। मन्त्री साउद प्रधानमन्त्रिणः प्रचण्डस्य भारत भ्रमणं द्विपक्षीय सम्बन्धं सुदृढं विधातुं केन्द्रितमासीदिति स्पष्टीकुर्वन् भ्रमणेन आर्थिक राजनीतिक विषयेषु विमर्शनस्य विश्वासस्य च वातावरणं सृष्टमस्तीति च अबोधयत्। ऊर्जो जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् निवेश मैत्री वातावरणं सृष्ट्वा एकीकृत योजनां निर्माय अग्रे वर्धितमस्तीति अवोचत। मन्त्री बस्नेत सेचन सौविध्यं प्रापयितुं निर्माणाधीना योजनानां यथासमयं सम्पादनस्य प्राक्तना योजनानां सम्भारस्य नूतन लक्षित क्षेत्रेषु सेचन प्रापणस्य च कार्ययोजना मन्त्रालयस्य अस्तीति अज्ञापयत। कर्णाली सुदूर पश्चिम प्रदेशयोः वर्षद्वयस्य अभ्यन्तरे पूर्णरूपेण विद्युत प्रापणस्य लक्ष्येण सह कार्ययोजना अग्रे वर्धापितास्तीति च मन्त्री बस्नेत असूचयत। पेयजलमन्त्री मन्दिर महेन्द्र राय यादव सांसदानां प्रश्नान् उत्तरयन् सर्वेभ्यः नागरिकेभ्यः पेयजलस्य सुनिश्चयनं विधाय स्वच्छताभियानं राष्ट्रियाभियानस्य रूपेण अग्रे नयनस्य योजना सर्वकारस्य वर्तते इति अज्ञापयत। मन्त्री यादव स्तरत्रयस्यैव सर्वकाराणां सहकार्येण स्वच्छः नेपालः स्वस्थः नेपालिनश्चेति समाघोषेण सह स्वच्छतायाः अभियानस्य प्रारम्भणस्य योजना मन्त्रालयस्य अस्तीति अब्रवीत। तत्पूर्वम् उपवेशस्य शून्य समये सांसदः पशुपतिनाथ मन्दिरस्य स्वर्णमयी जलहार्याः तथ्यं बोधयितुम् आयव्ययकं संशोध्य पार्थिकर्तुम् अछाम जनपदस्य बयलपाटा चिकित्सालयस्य सञ्चालनं सहजं विधातुं सुधारगृहाणि व्यवस्थितानि कर्तुं सार्वजनिक सम्पदां संरक्षितुम् टिंकर प्रवेशबिन्दोः सञ्चालनाय प्रयतितुं च सर्वकारस्य ध्यानाकर्षणं व्यदधुः। पशुपति क्षेत्र विकास कोषस्य तात्कालिक सदस्य सचिवस्य डाक्टर प्रदीप ढकालस्य विरूद्धे अवैधानिक सम्पदः अर्जनस्य अभियोगे काष्ठमण्डपवर्तिनी विशेष न्यायालये ह्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। अधिकार दुरूपयोग अनुसन्धान आयोगेन एक कोट्या चतुश्चत्वारिंशत लक्षेभ्यश्च रूप्यकेभ्यः अधिक सम्पदः स्रोतः न दृष्ट इति आरोपेण डाक्टर ढकालस्य विरूद्धे न्यायिक प्रकरणं पञ्जीकारितमिति आयोगस्य प्रवक्ता भोला दाहालः अज्ञापयत। राष्ट्रिय सभाया अन्तर्गतायां राष्ट्रिय सम्बद्धता समन्वय समितौ महालेखा नियन्त्रक कार्यालयेन सह अनियमेन विहितस्य व्ययस्य अवस्थायाः न्यूनीकरणस्य लेखा परीक्षणस्य क्रमे दृष्टानां समस्यानां च विषयेष् विमृष्टं वर्तते। समितेः पूर्वेद्युः सीमप्रासादे उपविष्टे उपवेशे कार्यवाहक महालेखा परीक्षकः राममाया कुंवरः महालेखा परीक्षकस्य कार्यालयस्य राष्ट्रिय सुशासन स्थापनाय सहयोगी निकायो स्थिति समस्पष्टयत। कार्यवाहक महालेखा परीक्षक कुंवरः अगदत् लेखा परीक्षण प्रणाल्यां स्थानीय स्तरादेव सुधारो विधातव्य। उपवेशे सांसदाः महालेखा परीक्षक कार्यालयेन चिरकालत अनियमेन वितो व्ययः प्रदर्श्यमानो वर्तते। लेखा परीक्षणं कर्गजपत्रे सीमितं जायमानं चास्तीति भाषमाणा। यस्मिन् कार्यालये अनियमेन वितो व्ययो दृश्यते तस्य दायित्ववाहिन तस्यैव कार्यालय प्रमुखस्य निर्धारणत्वेन वैधानिकं किं व्यवस्थां विधातुं बलं प्रादुः इति समाचाराः।